अद्यतनसुभाषितं कः पठति?
अहं पठामि वा?
मोहन् महोदय वा?
आम्
अस्तु, पठतु महोदय. किञ्चित् उच्चैः पठतु. ऐ केन् हियर् यू.
पापं कर्तुं कर्तुं पापं कर्तुं कर्तुं न
कर्तुं ऋणं
पापं कर्तुं ऋणं कर्तुं मन्यन्ते मानवाः सुखं परिणामो ति गहनौ परिणामोति गहनो महतामपि नाशकृत् पापं कर्तुं ऋणं पापं कर्तुं ऋणं.
Do you want to try telling the meaning? Prayatnam karoti va mahodayah?
Aham prayatnam karomi. Sins to do, debt, loan, imagine, suppose, happiness, pleasure, results. You don't need too much bad industry. Papam kartum kritam manyate. Manavaha sukham. Okay. Does it mean taking too much debt is not good?
Okay. Very close. So it means that it is, even though committing sins or borrowing money gives us temporary happiness, eventually it will lead to stress and unhappiness, and even good people can be affected by this. Astu va prashnam asti va?
So the moral is don't take, do not borrow, is that what it is?
It means like if you borrow money, then to give it back immediately and to avoid committing sins.
Okay.
Mm-hmm. Okay. Astu. Aditana Patyakramaha Grihapatam Nasti. So the new semester has started for us here, so I've been a little bit busy with the exams and stuff. So that's why I couldn't send out the homework on time. So there was no homework this week. Tadanantaram adya punasmaranam eva asti. Tadanantaram vikramavetala katha patamaha. Tadanantaram antimam vibhakti vallari karishyamaha. Okay. Astu. So this is the punasmaranam. I'll give you a few minutes and then we will go over the answers. नमस्ते इतोपि समयः आवश्यकं वा? Do we need more time?
No, I'm done.
अस्तु ओके. प्रथममस्ति विश्वनाथमन्दिरं काशी अस्ति, किं भवति?
काशीतः
काश्यां, काश्यां सप्तमी, सप्तमी इन् काशी.
Can we also say काशी नगरे अस्ति और काश्याम् अस्ति? Both are fine.
Kashi Nagare or Kashyam, both are fine. And then, Mama Pita Karyam Karoti.
Karyalaye
Karyam Karoti. Saptami Vakti. Aham Bhojanam Karomi.
Aham Madhyane Bhojanam
Karomi.
Aham Madhyane Bhojanam Karomi. Uttamam. Aham
Mitran.
विद्यालयं गच्छामि.
मित्रान् सह,
मित्रेण सह,
मित्रैः,
मित्रैः,
मित्रेण,
या प्लूरल् बहुवचनम्,
मित्रैः सह, मित्रैः सह, मित्रैः विभक्ति किम्?
तृतीया
विभक्ति बहुवचनम्.
Why बहुवचन here?
Because Mitrani, not Mitram, Mitrani.
Devaha Devyai. So Mitrai is a, so what's the right thing?
Mitrai.
It's not a plural. Why we are doing plural here?
Mitrani is plural.
Oh.
Mitram is ekavachanam, singular.
Okay.
So Devaha, right? It's Akaranta Pumlinga.
Yes, correct. Now this is Napumsakalingam. Pustakam.
Pustakam.
Pustakani. Okay. Purataha Vidyarthinaha Santi.
Mama.
Mama Purataha Vidyarthinaha Santi.
Shashti Vibhakti.
ओके. तदनन्तरं छात्राः पाठं पठति, टिप्पणीं लिखन्ति.
क्षम्यताम्,
एषदि पठन्ति, बट् ऐ वास् लुकिङ्ग् फार् त्वान्तरूपं.
पठित्वा
उत्तमम्. एषदि पठन्ति हियर् मेर मिस्टेक्. पठित्वा टिप्पणीं लिखन्ति. ओके. जनकः
भगिनी, ऐ मीन् छात्रा हेस् आफ्टर् लर्निङ्ग् द लेसन् दे आर् रैटिङ्ग् इस्
रैटिङ्ग् नोट्स्
दे आर् रैटिङ्ग् नोट्स् आफ्टर् ओके. सो वट् हेपन् इफ् ऐ से पठितुं?
टु रैट्
दट् जस्ट् चेञ्ज् द मीनिङ्ग्. सो वुड् मीन् टु स्टडि द चिल्ड्रन् टेक् नोट्स्. जनकः सा अङ्कनीं क्रीतवान्. तस्यै जनकः तस्यै अङ्कनीं क्रीतवान्. तस्यै विभक्ति किम्? चतुर्थी विभक्ति. उत्तमम्. सीता नमः.
सीतायै नमः.
सीतायै नमः.
उत्तमम्. सीतायै नमः. ओके. कृष्णः वेणुः वादयति.
वेणुं वादयति.
कृष्णः वेणुं वादयति. उत्तमम्. वेणुं विभक्ति किम्?
द्वितीया
विभक्ति. उत्तमम्. निर्धनः धनं सम्पादयति.
कष्टेन.
आम् सम्यक्. कष्टेन धनं सम्पादयति.
तृतीया.
ओके. कुत्रापि प्रश्नमस्ति वा? ओके सम्यक्. इदानीं कथां पठामः.
one question. The janakah tasyai ankani kritavan. What does that mean?
The father bought the pencil for the girl, or for her. For her.
Okay. If I say janakah tasyah ankanim kritavan, does it mean janakah bought the ankanim from him?
Tasyah, it can mean her.
From her. Like he bought the ankanim from her.
It could mean from her or her pencil.
Her pencil.
Okay. So that's why we are looking for tasyah here, because he bought the ankanim For her.
Yes. Because tasyah can be used for panchami bhakti and shasti bhakti.
That's right. Okay.
So like if she says she brought from her, what should be the vibhakti?
Tasyah.
Oh.
Could
be panchami.
Yes.
And shasti are the same. Tasyah.
Oh, chaturthi and panchami both are same.
No, panchami and shashti are the same.
Okay.
Bhagini, can we use number 10, nirdhanaha kashtad dhanam sampadayati in panchami? Can we use that sentence?
Okay, but that would mean Okay, that also works.
Okay, thank you.
What does that mean? This is with trouble, and what is that?
From trouble. I mean,
from trouble. Okay.
Mm-hmm. No, from does not sound good. It should be with trouble. You will not earn the money from trouble. Okay. Somebody might buy. Somebody might buy. Yeah.
अस्तु इतोपि प्रश्नमस्ति वा
नास्ति
ओके एकनिमिषम् ओके अस्तु कः पठति द फर्स्ट् पेराग्राफ्
ऐ केन् रीड्
अस्तु पठतु भगिनि
फ्रम् वेर् सम्प्रत्यपि
यस् सम्प्रत्यपि
सम्प्रत्यपि अस्माकं राज्ये
दारिद्र्यम् अस्ति एव
दारिद्र्यम् अस्ति एव तदस्माभिः निर्मूलनीयम् अस्मत्प्रतिभिः ते राज्यात् निरन्तरं प्रवहन्त्याः गङ्गायाः दर्शनेन मम मनसि एकः विचारः प्रस्फुरितः अस्माकं राज्ये नद्यः न सन्ति यदि तस्याः किञ्चित् जलम् अस्माकं राज्यं प्रति सञ्चारयामः तर्हि राज्यमिदं कदापि दुर्भिक्षं न प्राप्यस्ति प्राप्स्यति तदा सर्वदा कालकृतदृष्टयाश्रिताः अपि वयं न भवेम
उत्तमम् ओके प्रथममस्ति सम्प्रति प्लस् अपि सम्प्रत्यपि सम्प्रति प्लस् अपि इत्युक्ते किम्
नौ आल्सो प्रेसेण्ट्लि
Now also, asmakam raje daridryam asti eva. Asmakam vibhakti kim?
Shashti vibhakti.
Shashti
vibhakti.
Uttamam. Shashti vibhakti bahu vachanam asti. So, asmakam intikte our. In our rajyam, rajye sapti vibhakti asti, daridryam asti eva. Daridryam intikte kim?
Poverty.
Poverty. Uttamam. Tanantaram? Tat plus asmabihi. Asmabihi vibhakti kim?
Tritiya vibhakti.
Tritiya vibhakti. Ekvachanam or bahuvachanam?
Bahuvachanam.
So, tat asmabihi nirmulaniyam. We should get rid of the poverty. So nirmulaniyam means we should get rid by us. Yes, correct. Asmat prativeshi rajyat nirantaram pravahantyah gangayah. So asmat prativeshi rajyat. So asmat is panchami vibhakti. So asmat from the neighboring rajyam nirantaram pravahantyah gangayah darshanena mama manasi ekah vicharah praspuritah. So the Ganga river that flows from the neighboring rajyam, one idea got inspired by me in my mind. Okay, so darshanena vibhakti kim?
Tritiya
vibhakti.
Ekvachanam.
Gangayah
shashti vibhakti.
Shashti vibhakti. So from the darshanam or seeing of the Ganga, mama manasi ekaha vicharaha praspritaha asmakam raje nadyaha na santi. So that's the easy one. There is no river in our kingdom. Yadi tasyaha kinchit jalam asmakam rajam prati sancharayamaha. So yadi itikte kim?
If
tasyaha kinchit jalam, so tasyaha, this one tasyaha is panchami vibhakti. So tasyaha means from the other kingdom, from the river. If we get some water from the river, and if we start a river in our area, tarhi rajyam idam kadapi durbhiksham na prapsyati. So tarhi yadi tarhi, then rajyam idam kadapi durbhiksham. Durbhiksham itikte kim?
Famine
na prapsyati. So will not happen.
Have any drought.
So if we bring the river here to our kingdom, then there will not be drought or famine. Tatha sarvada kala krita vrishti ashritaha. Tatha sarvada kala krutaha vrishtihi ashritaha. So kala krutaha means as time goes, vrishtihi means rain, and ashritaha means follows. Api vayam na bhavema. So this means that we do not have to wait for the rain to follow. We do not have to wait for the rain to come. We can just go to the river and get water. Okay. Prashnam asti va kutrapi?
What is bhavema, bhagini? Is it plural of using vayam?
Bhavema is...
Vayam is plural.
Vayam, vayam
is plural, so bhavema is a plural, that's why?
Yeah, bhavema is plural, yes. Bahuvachanam. Bahuvachanam, vidilingam, vidilingam. Bhavema is bahuvachanam, vidilingam asti.
Hmm.
So should not happen for us. Will not, we will not become.
Hmm.
So the root is bhavati?
Yes. Yes, bhavati. Okay. Okay, taha patati agre.
Aham patami?
Astu patatu bhagini.
तव चिन्तनं तु युक्तमेव किन्तु अस्माकं प्रतिवेशी वैकन्तिकाराज्यस्य राजा रुद्रकेतुः अस्मान् शत्रुं मन्यते तथा च कथं वा वयं ततः जलम् अस्मद्राज्ये प्रवाहयितुं शक्नुमः इत्यपृच्छत् विक्रमसेनः
उत्तमम् ओके तव चिन्तनं तु युक्तमेव सो युक्तं प्लस् एव युक्तमेव युक्तम् इत्युक्ते किं
करेक्ट्
करेक्ट् प्रापर्
ऐडिया ऐडिया
युक्तं मीन्स् जस्ट् गुड् और् प्रापर् सो चिन्तनम् इत्युक्ते किं
थिङ्किङ्ग्
ऐडिया थिङ्किङ्ग्
थिङ्किङ्ग् गुड् सो देट् थिङ्किङ्ग् इस् आल्सो गुड् किन्तु अस्माकं प्रतिवेशी वैकन्तिराज्यस्य राजा सो अस्माकं अवर् नेबरिङ्ग् किङ्ग्डम् विच् इस् काल्ड् वैकन्तिका राजा रुद्रकेतुः सो रुद्रकेतुः इस् द नेम् आफ् द किङ्ग् आफ् द नेबरिङ्ग् किङ्ग्डम् अस्मान् शत्रुं मन्यते अस्मान् विभक्ति किं
तृतीया
द्वितीयविभक्ति बहुवचनं सो द प्रोब्लम् इस् दट् द नेबरिङ्ग् किङ्ग्डम् थिङ्क् दट् वी आर् दि एनिमि तथा प्रतिमा भगिनी कृपया मध्ये स्थापयतु तथा च कथं वा वयं ततः जलम् अस्मत् राज्ये प्रवाहयितुं शक्नुमः सो देन् हौ विल् वि गेट् यस् हौ विल् वि ब्रिङ्ग् द वाटर् टु अवर् किङ्ग्डम् हौ विल् लेट् द वाटर् फ्लो टु अवर् किङ्ग्डम्
हौ इस् इट् पासिबल् टु गेट् द वाटर् फ्लोयिङ्ग् थ्रू अवर् किङ्ग्डम्
यस् करेक्ट् ओके
भगिनि तथा यु आर् रैट् यु लैक् षष्टि त्वत्
षष्टि
आम् 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 तदेव ऐ थिङ्क् देट्स् करेक्ट् ओके ओके या सो त्वम् अनन्तव योर् चिन्तनं योर् थिङ्किङ्ग् ओके इति अपृच्छत् विक्रमसेनः दिस् इस् वाट् विक्रमसेनः सेन् ओके सम्यक् प्रश्नमस्ति वा कुत्रापि
भगिनी इत् पृच्छत् हौ डु वि विभाग इत् पृच्छत् इस् वन्
इति अपृच्छत् इति प्लस् अपृच्छत् इत्यपृच्छत् ओके तदनन्तरं कः पठति?
अहं पठामि.
अस्तु, पठतु शीला भगिनी. क्षम्यतां सुषमा भगिनी, केन् यु रीड् अण्टु समापितवान्?
आम्. तदा जयतेजः उक्तवान् यत् प्रतिवेशिराज्यात् नदीजलस्य आनयनं तु असाध्यमेव इति. तत् श्रुत्वा मयूरध्वजः प्रयत्नेन विनैव तदसाध्यमिति वयं कथं वक्तुं शक्नुमः? सर्वासां समस्यानां परिष्कारः भवत्येव. अस्माभिः तस्यां दिशि प्रयत्नो विधेयः भ्रातः सर्वदा अस्माकं सानुकूलचिन्तनमेव भवतु. अस्तु, यथा मयूरध्वजेनोक्तं तथा अस्माकं यत्नः भवतु इति वचनेन राजा विक्रमसेनः सम्भाषणं समापितवान्.
उत्तमम्, उत्तमम्. ओके, तदा जयतेजः उक्तवान् यत् प्रतिवेशिराज्यात् नदीजलस्य आनयनं तु असाध्यमेव इति. सो जयतेजः सेस् बट् इट् इस् इम्पासिबल् टु ब्रिङ्ग् द वाटर् फ्रम् द नेबरिङ्ग् किङ्ग्डम् अण्ड् देन् असाध्यं प्लस् एव असाध्यम् असाध्यम् इत्युक्ते किम्?
इम्पासिबल्.
इम्पासिबल्. अण्ड् साध्यम् इत्युक्ते
पासिबल्.
पासिबल्. उत्तमं. सो तदनन्तरं तत् श्रुत्वा, तत् प्लस् श्रुत्वा, तत् श्रुत्वा. सो तत् प्लस् श्रुत्वा, श्रुत्वा रूपं किं? त्वान्तरूपं. त्वान्तरूपम्. After hearing that, Mayuradvajah says, Prayatnena vinaiva tadasadhyam iti vayam katham vaktum shaktumaha. So, without trying, how will we know that it is impossible?
Hmm.
Is what he is saying. Sarvasam samasyanam parishkaraha bhavati eva. Bhavati plus eva is bhavati eva. So, sarvasam itikte kim?
For all?
Always.
For all the cases.
Yes, all the for all. Samasyaha, so samasyana means for all the problems.
Problems.
Samasyana is shashti vakti pullingam bahuvachanam uttamam. So, for all the problems, there is definitely a solution.
Solution.
Asma bihi. तस्यां दिशि प्रयत्नो विधेयः मीन्स् वि शुड् ट्रै टु यस् वर्क् टुवर्ड्स् द डैरेक्षन् मेक् एफर्ट् टुवर्ड्स् द डैरेक्षन् भ्रातः सर्वदा अस्माकं सानुकूलचिन्तनमेव भवतु इति अवोचत् इति प्लस् अवोचत् So, brother, we should think positively. Okay? Astu, yatha mayura dvajena uktam. So, mayura dvajena plus uktam. Tatha asmakam yatnaha bhavatu. Iti vachanena raja vikramasenaha sambhashanam samapitavan. So the king says, okay, we will do whatever Mayura Dvajah says. We will follow his ideas. Okay. Okay, kutrapi prashnam asti va?
Pasyam is what vibhakti and is it saptami Srilinga?
No, Tvam.
कुत्र
तस्यां लैक् अस्माभिः तस्याम् अस्माभिः इस् बै बै अस् तस्यां दिशि
प्रयत्नो विधेय
तस्यां सप्तमी विभक्ति तस्यां दिशि सो इन् दट् डैरेक्षन् सो दिशि इस् स्त्रीलिङ्गम् सो दिशि इस् स्त्रीलिङ्गं सप्तमी विभक्ति सो तस्यां दिशि दिशि स्त्रीलिङ्गं यस् तस्यां स्त्रीलिङ्गं सप्तमी विभक्ति okay and dishi is like those like the rajan shabd hai as a different conjugation disha dishi strilingam I don't remember what it ends with okay astu agre kaha patati kaha va kava अस्तु पठतु नास्ति महोदय
कतिचन मासः व्यतीताः वैकुण्ठराज्यस्य राजा विक्रमसेनं युद्धार्थम् आहूतवान् तदा विक्रमसेनः स्वामत्यैः सह सामात्यैः सह
सङ्गोष्ठीम्
आयोजितवान् तत्र तेन स्वपुत्रौ अपि आहूतौ सः सर्वेभ्यः सूचनाः स्वीकृतवान् तदा जयतेजः पितरं हस्तं सूचयत् तात् रुद्रकेतोः सैन्यम् अस्माकं सैन्यापेक्षया द्विगुणितं वर्तते यदि युद्धं भविष्यति तर्हि वयम् अवश्यं पराजयं प्राप्स्यामः अतः सम्प्रति सन्धये प्रयत्नाः एवम् उचितः इति
उत्तमम् ओके कतिचन मासाः व्यतीताः सम् मन्थ्स् पास् बै वैकुण्ठराज्यस्य राजा विक्रमसेनं युद्धार्थम् आहूतवान् आहूतवान् इत्युक्ते किम्
आम्
भूतकालः अस्ति आह्वयति आहूतवान् तदा विक्रमसेनः स्वामात्यैः सह सङ्गोष्ठीम् अयोजितवान् सो
आयोजितवान्
आयोजितवान् सो विक्रमसेनः फोर्म्ड् हिस् टीम् वित् हिस् कौन्सल् ही फोर्म्ड् हिस् आर्मी हिस् टीम् तत्र तेन स्वपुत्रौ अपि आहूतौ थ्रू देट् ही द हिस् सन् आल्सो काल् इन्वैटेड् सः आम् द्विवचनं सः सर्वेभ्यः सूचनाः स्वीकृतवान् सो आफ्टर् कालिङ्ग् देम् ही गाट् सूचनाः इत्युक्ते किम् एड्वैस् इन्फर्मेशन् किमपि सो ही गाट् information and advice from the council and from his son swikritavan bhutakalah asti swikaroti swikritavan tada jayatejah pitaram itam asuchayat tata rudraketoho sainyam asmakam sainya apekshaya dvigunitam vartate सो अपेक्षया इत्युक्ते किं
कम्पेर्ड् टु
सो डस् एनि वन् नो विच् वन् इस् बिगर् our kingdom bigger our sainyam or the opposite
rudraketu
sainyam is two times our
sainyam
correct so rudraketoh sainyam asmakam sainyo apekshaya dvigunitam vartate compared to our army the opposite team army is twice bigger yadi yuddham bhavishyati tarhi vayam avashyam parajayam prapsyamah so when there is a war then it is sure that we will not pass we will not win
we'll get defeated
atah samprati sandhaye prayatnah eva uchitah so start like from now even now we need preparation and effort
making peace with them
peace sandhaye
sandhi means you are making peace with
sandhi
oh I thought it
peace
with okay so we need to
karanta pannunga
okay so we need to make peace with the other the neighboring the enemy kingdom we need to try to bring peace okay antimam kah patati
aham patami
astu patatu mohaya
तदनु विक्रमभूपतिः तस्य कनिष्ठपुत्रस्य मयूरध्वजस्य अभिप्रायम् अपृच्छत् एषः उत्तमः अवसरः इति वयं चिन्तयामः यदि वयम् अस्माकं सैन्यं सन्नद्धं कृत्वा अग्रे तारयामः तर्हि वयं गङ्गाप्रवाहम् अत्र आनेतुं शक्नुमः यतः वैकन्तिकराज्यस्य राजा
Okay. So, we will read that sentence
yeah. next class.
Tadanu Vikrama Bhupatihi Tasya Kanishta Putrasya Mayuradvajasya Abhiprayam Aprichat. So, he asked his younger son, Mayuradvajaha, for his opinion. Abhiprayam itikte opinion. Aprichat asked, Eshaha Uttamaha Avasaraha Iti Vayam Chintayamaha.
We feel that this is a very good opportunity.
Very good. Yadi vayam asmakam sainyam sannadam krutva agre sarayamaha. So we will prepare our
army ready.
Yes, we will keep our army ready and then we will go. Tarhi vayam ganga pravaham atra anetum shaknumaha. Then we will be able to
the Ganges also
bring the river or make the river flow or bring the river anetu we are able to do that shaknu maha bahuvachana okay anetu rupam kim
tumanta
ओके कुत्रापि प्रश्नमस्ति वा
शक्नुमः किमर्थं शक्नु क्यान्
पासिबल्
पासिबल्
पासिबल् एबल् टु क्यान्
वाट् इस् द सिङ्ग्युलर्
शक्नोति
शक्नोति
सो हि इस् सेयिङ्ग् युद्ध इस् द ओन्ली वन् आप्शन्
नो
If we are well prepared, then we can fight.
Yadi vayam asmakam sainya samriddham. So he is saying we can samriddha our army.
Sannaddham. Prepare.
And then come. He is not ready yet.
he's saying we will get our army ready, but we will also try to unite and wait.
He on the second line he said esa uttama avasarah iti chintayamah. So he's saying for yuddha is the only one option, right? Option.
Okay, I think he's saying it's important to keep our army united and prepare the army. Yes, army, the fighting is the only option.
I think it's the only option, but he's not ready yet. His armies are not ready yet.
Yes, yes, he didn't give out the orders yet. They're just thinking. They're just thinking of ideas now.
Mm.
ओके अस्तु इतोपि प्रश्नमस्ति वा ओके इदानीं विभक्तिवल्लरी करिष्यामः ओके गतसप्ताहे वयं किं कृतवन्तः कः वदति उत्तमं पञ्चमी विभक्ति आरम्भं कृतवन्तः Okay, so what does Panchami Vibhakti mean? When do we use it?
When you're getting from one place to another.
Good. From one place to another. Okay, so from the Abhyasa Pustakam, we learned it by using Saha at the end. I will also skip forward and I will show you the Panchami Vibhakti that's in the tables. Another way to use the Panchami Vibhakti, when you think of Panchami Vibhakti, you use this way. I'll show you that way also, and then you can use both ways, up to you. Okay, so just we'll skip ahead to for looking at the table, page 44. On page 44, Koshtakam Pashyatu. So panchami vibhaktyantani rupani. So words with the ending with panchami vibhakti. So it gives everything here. For now we'll focus on akarantaha, ak and akarantaha, and ikarantaha strilingam. So akarantaha pumlingam asti, balaha asti, balaha asti, panchami vibhakti. बालात् बालेभ्यः सो बालः बालाः बालात् बालेभ्यः सो यु केन् से बालतः ओर् यु केन् से बालात् ओके कृपया म्यूट् मध्ये स्थापयतु नमस्ते महोदय धन्यवादः सो बालतः ओर् बालात् एण्ड् देन् आकारान्त स्त्रीलिङ्गं बाला बिकम्स् बालायाः एण्ड् बालाः बिकम्स् बालाभ्यः सो इन्स्टेड् आफ् सेयिङ्ग् बालातः यु केन् से बालायाः सो बालायाः वट् अदर् विभक्ति इस् कान्जुगेटेड् द सेम् वे बालायाः षष्टि विभक्ति So, in Sri Lingam, Akaranta Sri Lingam, Shashti Vibhakti and Panchami Vibhakti are the same. Okay, they are the same, but the Bahuvachanam is different.
One question, Dhani.
Vartha Mohan Madhya.
So, Balayaha, you can say, or Balayat.
No, Balayaha or Balataha.
Balayaha or Balataha.
Okay. Yes. Okay. And then, Navam Sakalingam, Pustakam, Pustakani, Pustakat, Pustakebhyaha. okay pustakat pustakebhyah or pustakatah tanantram strilingam gaurya gauri gauryah gauri gauryah gauryah gauribhyah so gauri becomes gauryah and then gauryah becomes gauribhyah in panchami bhakti or you can say gauri tah for equity gauri tah okay prashnam asti va okay so when we're going over the exercises
taha is only for singular no taha is used only with singular not with plural gauri tah
yes yes only singular
okay thank you
yep only singular okay so you can use these or you can use the taha up to you okay so let's go back and I think we did the first page we can go over the first page again do you guys want to go over the first page again okay this time we'll go over the first page but instead of using taha we'll use what we learned now the balat and the balayah pustakat and gauryah okay okay so pratham asti mysuru tah matulah agatavan so oh mysuru tah okay mysuru with ukarantah so okay if there's mysuru nagaram mysuru nagaratah matulah agatavan what does nagaram becomes
nagarat
nagarat so mysuru nagarat matulah agatavan okay okay dvitiyam pratima bhagini
काशी नगरतः अनुजः आगतवान्
ओके काशी नगरतः सो इन् पञ्चमी भक्ति द इन् द व्हेन वी आर यूजिंग द अदर फॉर्म यू कैन से
काशी नगरात् अनुजः आगतवान्
सम्यक् सम्यक् ओके मोहन महोदय
or we can also say kashyah
yep kashyah also works ikaran
it should be kashyah isn't it kashyah
that is correct ikaran stilingam
no kashyah eva kashyah gauri gauryah kashi kashyah
we should not use kashitah
you can
kashitah is also fine
both काश्याः और काशीतः
या लास्ट क्लास वी डिड तः दिस क्लास आई एम यूजिंग द न्यू फॉर्म
विभक्ति
ओके मोहन महोदय
केदार स्नेहितः केदार इज केदारनाथ
केदार नगरम
केदार नगरम केदार व्हाट इज केदार्याः
केदारी न नगरं नगरम् इति उपयुज्यतु सो
नगरात्
केदारनगरं केदारनगरं
केदारनगरात्
आम् उत्तमं
केदारनगरात् स्नेहितः आगतवान्
उत्तमं बहु उत्तमं केदारनगरात् स्नेहितः आगतवान्
मद्रास् नगरात् भगिनी आगतवती
आगतवती उत्तमं शीला भगिनी शीला भगिनी
Bhagini, can you hear me? Hello?
Shrinomi, I can hear you.
तिरुवनन्तपुरनगरात् अग्रजः आगतवान्
उत्तमम् उत्तमं नरसिंहमहोदय
पुणे नगरात् भगिन्येयः
भागिनेयः
आगतवती
भागिनेयः
आगतवान्
भागिनेयः
पार्टिसिपेण्ट्
भगिनी भागिनेयः सिस्टर्स्
भागिनेयः
भागिनेयः पुल्लिङ्गम् एकवचनमेव
सो आगतवान्
या भागिनेयः मीन्स् पार्टिसिपेण्ट् चित्र भगिनी सिस्टर् सन् उत्तमम्
आगतवान्
यस् आगतवान् सम्यक् तदनन्तरं ओके ऐ एम् नाट् एबल् टु स्क्रोल् डौन् हू इस् आफ्टर् नरसिंह महोदय
Is it okay? Kolkata Anuja. Kolkata tah Anuja agatavati. Or we can say Kolkata Nagarat Anuja agatavati.
Kolkata Nagarat athava what is the other way?
Kolkata tah.
Okay. Kolkata you would consider as stree akaranta streelingam. Okay, Kolkata tah is good. Kolkata tah is good. Kolkata yaha
Anuja agatavati.
Bahu uttamam. Good. So three ways. Kolkata tah, Kolkata yaha, and Kolkata nagarat. Samyak. Or Kolkata nagaratah. That also works. Okay. Tanantaram, who's after Sushma Bhagini?
Sushma Bhagini. Kaladi Nagarat Guruhu Agatavan.
Samyak. Tanantaram, Kasti.
Kaladi Yaha Guruhu Agatavan.
Is that Ikaranta? That is short form is there, right?
Yeah, that's Ikarantaha.
It was not like, it won't be like Nadi Shabdaha.
Yeah, it won't be like Nadi Shabdaha. So just Kalati Nagarat. Kalati Nagarat is fine. Who's after Chitra Bhagini?
Riya Bhagini.
Okay, Riya Bhagini, Astiva?
Astu Bhagini.
ओके करोति वा ग्रामः पञ्चविभक्ति ओके बालः बालात् ग्रामः
ग्रामात्
ग्रामात्
पितामहः
ग्रामात् पितामहः आगतवान् उत्तम ओके तदनन्तरं कः वाका अस्ति Okay, who is under Riya Bhagini? I cannot scroll down.
Indu Bhagini.
Hello.
Oh, okay. Astu, Indu Bhagini karoti va?
Hyderabad and Mata Mahi. Hyderabad taha Mata Mahi agatavati. Okay. Hyderabad nagarat Mata Mahi agatavati. Or you can Hyderabad, yeah, you can't make it all one now.
That's fine. ओके सम्यक् बहु उत्तमम् ओके अनुसूचना सेस् यदि तः इति प्रयोगं भवन्तः न इच्छन्ति तर्हि विभक्तियोजनसमये मैसूरुनगरात् नगरात् इत्येव प्रयोगः सरलः भवति सो इफ् यु डु नाट् वाण्ट् टु यूस् तः देन् यु केन् यूस् द नगरात् एट् द एण्ड्
So, Bhagini, one question.
Yes.
Mysuru Nagarat, Hyderabad Nagarat, or Hyderabad Taha.
Okay.
So, you have to use the place and then Nagar, Nagarat.
Yes. Yes, because some of these names are not really Sanskritam.
Yeah, Hyderabad is.
So that's why you have to add the Nagarat.
So we don't know what is the lingam, so you use the Nagarat.
Mm-hmm. Yep, correct. Okay. Agre Saramaha, Kaha Suchana Patati, wants to read the information.
I can read.
Asa, Patati will begin.
Govindasya Grihasya Karyakramartha विविधस्थानतः विविधानि वस्तूनि आनीतानि कस्मात् किम् आनीतम् इति अधः निर्दिष्टम् अस्ति तदाधारेण वाक्यानि रचयत
उत्तमम् भगिनी डू यू नो द मीनिङ्ग् आफ् द सूचना
इस् इट् सेयिङ्ग् Govinda house has some event and things are bring he bring the things from different places and then what are the things brought from where is in the box depending on that make a sentence
very good uttam okay
Agni, one question. Kasmat is from where, right?
Yes, yes. Kasmat is from here. From where?
From where what? Ani.
Yes.
Adaha. Okay.
Okay. Udahana masti. Aapanaha tandulaha. So, aapanataha tandulaha anitaha. Or Anitavan. Anitavan is also fine. So Anitaha means just is bringing. So Anitavan is easier. Apanaha kim, if we use the other form, what would Apanaha be?
Apanath.
Samyak. So he brings the rice from the...
Anitaha and Anitavan, both are past tense?
No, Anitaha means is bringing. I think it's Shatrantam.
Anitavan would be past tense, wouldn't it? He brought it.
Anitam.
Yes. Oh. Anitaha is like a Kartari Prayog.
Okay. Okay, I'll look into it. Pratima Bhagini, Janativa?
Yeah. Anita is used in Karmani Prayog. It is used for Karmani Prayog, so it was brought by him. So that way it is brought, was brought, means Anitani. Gatani means had gone. Anitani had brought, like that it is. So it is past passive participle, it is called in English. And Sanskrit it is Gamagata, Anita, Anianita, then Purusha Prushta, like that they use as Karmani Prayog.
Okay. I'll look into that. Like
yeah.
Yatitaha, Anitaha. Okay. Yeah, I'm not sure of that one either. I have to.
So, no, this is like from Apanat, Tandulaha, Anita. So, Anita by someone. So this is a passive voice. From the shop, rice was brought by someone, that is not given, but by someone. So it's a passive voice. So in passive voice, such Anita, verb is changed into this participle, Anita. So it is all these are in passive voice. That's why it is used like that.
Okay. So to make things simpler, we'll just say Govindaha Anitavan. Okay. Astu. So we left off with Indu Bhagini. Tanantaram, kaha asti? Who's after Indu Bhagini?
Vitta Kosha Dhanam.
Who's Gopal. After you? Is it Gopal Modya?
Hello?
Okay, Gopal Modeha Karatiwa Dhitiyam.
Vitta Kosha Dhanam. Vittakoshat Dhanam. Is it Anitaha?
You can say Anitaha or Anitaha.
Was it because it was Tandulaha Anitaha? Was it anything to do with that?
It would be Dhanam Anitam.
Anitam can we use?
Anitam.
Anitam. Because it's a passive voice, so the verb will follow the object, not the subject.
Okay. So, Tandulaha Anitaha. Okay. Ah. So, the Tandulaha would be the subject, and Anitaha is brought. So, or you can say, Govindaha Apanataha Tandulan Anitavan. So Govindaha
Govindaha
from the store. So the rice. Dvitiya vibhakti bahuvachana.
So Govindaha Dhanam Vittakoshat Anitavan.
So Dhanam in this sentence should be Dvitiya vibhakti. Okay. Is that spashtam va? Is that clear?
Why is it Dvitiya Vibhakti for the second example and Prathama Vibhakti for the first this thing?
If you use Anitaha, then Tandulaha would be Prathama Vibhakti. If you use Anitavan, then Tandulaha would become Tandulan, Dvitiya Vibhakti.
Okay. Bhagini, one thing. So when I'm...
Yes.
The answer, they say Vittakoshat Anitaha Anitam Vittakoshat Dhanam Anitam.
Dhanam is in Dhitya Vibhakti, na?
Okay. Dhanam Anitam. Dhanam Anitam is Prathama Vibhakti and Dhitya Vibhakti. So it depends on which one you use of these.
So if it is Dhanam Anitam.
Yes. Dhanam Anitam. Anitam is Ekavachanam. Anitaha is Bahuvachanam. Okay. Astu. Tanantaram Pratima Bhagini Asti Kalu.
Indirao.
Vipanyaha Shakaha Anitaha. Or Govindaha Vipanyaha Shakan Anitavan.
Vipane, it is Ikaranta Punlinga Vipanihi.
Vipanyaha.
Vipane.
Vipane is Trilinga.
Vipanyaha.
Trilinga or Pulinga?
Trilinga.
Then it should be Vipane. Okay, then it should be Vipane, correct.
So Vipanyaha is like Yuvatihi.
No. Ikaranta Strilingam Matihi. Mate is the Panchami Vibhakti. So here it is Vipanihi, Vipane.
I don't know how to explain. So it's like Yuvatihi. Yuvatihi, you wouldn't conjugate like Matihi. Vipanihi.
Yeah, it is Ikaranta Strilingam. It has to be conjugated Matihi.
ikaranta strilingam, but you would conjugate like a normal ikaranta strilingam. Pratima Bhagini, do you get what he's saying?
Pardon, I didn't hear.
Okay, he's saying viparnihi should be conjugated like matihi.
Yeah, like mati, because vipani is feminine and small e ending. So how it will become matyaha, same way this is vipanyaha, panchami vipanyaha.
No, mati, oh, then matihi is matehe.
No, matihi could be matyaha or matehe.
Both.
Matyaha or matehe. So there are two forms. So you can say vipanehe.
Okay, then. Yes, correct. Vipanihi.
Vipanihi. Maybe we can go back to the table that you were showing earlier.
I'm looking at the table. Matyaha Matehe.
Okay. Okay, it only shows Matehe. So Matyaha is also fine. I think in the Parishishtam table.
Go next. It's the second page. Oh, yeah, here. Yeah, here, this one, yeah.
Okay, so Matyaha Matehe. Okay. Okay, that's it. Uttam. So, Vipanyaha Shakan Anitavan or Shakaha Anitaha. That's it. Mohan Modya? कृपया म्यूट् मध्ये स्थापयतु इन्दु भगिनी कृपया म्यूट् मध्ये स्थापयतु उद्यानम्
आम्रफलानि राइट्
आम्रपर्णानि Mohan Mother, you're on mute.
Okay. Udhyanam becomes Udhyanat. Udhyanataha. Sorry. Udhyanataha. Udhyanataha. Amra Parnani Anitavan.
Uttanam. Okay. So Udhyanam or Udhyanat. They're both fine.
Parnani? Is it Anitani?
It is Anitani.
Anitani. Napumchakalam?
Yes.
Anitani.
Anitani, yes.
Anitani,
yes.
Napumchakalam.
Anitani.
It is Anitani.
Okay. Astu. Amira Modya?
Govindaha. मित्रगृहात् वस्त्रकटाः आनीताः
उत्तमं नरसिंह महोदय
प्रतिवेशी गृहात् पत्राणि आनीतानि
ओके आई फॉरगॉट टू आस्क फॉर द मीनिंग सो प्रतिवेशी गृहं गृहतः पात्राणि आनीतानि
आनीतानि
इत्युक्ते किं
प्रतिवेशिगृहं गृहम् इस् हौस् प्रतिवेशी इस् नैबर् फ्रम् नैबर्स् ब्राट् द वेसल्स् पात्राणि आनीतानि
ओके मित्रगृहं Vastrakataha is the from friend's house, the carpets were bought. Udhyanam from the garden. or bark, the mangoes or bark. No, the mango leaves. Mango leaves. Amra parnani. And then vipanihi, from the market, the vegetables. From the bank, money. From the store, rice. Okay. Chitra Bhagini, Shala.
शालायाः दीर्घपीठानि आनीतानि.
उत्तमम्. इन्दु भगिनि,
ग्रामः एण्ड् कदलीपत्राणि. ग्रामतः कदलीपत्राणि आनीतानि.
ग्रामतः
कदलीपत्राणि और ग्रामात् ग्रामात्
उत्तमं. ग्रामात् और ग्रामतः.
भगिनी, दीर्घपीठानि मीन्स् बेञ्च्. लाङ्ग् बेञ्च् और् दीर्घपीठानि.
पीठ मीन्स् दि
स्टेज्. नो,
दीर्घ मीन्स् लाङ्ग्.
यस्, सो ए लाङ्ग् स्टेज् ओर् समथिङ्ग्. And then gramat kadali patrani is
plant and leaf. Banana ne,
banana leaf. Uttamam. Gopal Mohdaya, Astiva,
one second. Bhagini, next one. Jalagaram jalam. Jalagarat jalam anitam.
Uttamam. Okay, so jalagaram is just the place where water is stored, water is bought. Tanantaram Pratima Bhagini.
क्षीरकेन्द्रात् क्षीरम् आनीतम्.
मिल्क् बूत्.
उत्तमम् उत्तमं. सम्यक्. ओके, प्रश्नमस्ति वा?
या, एकं प्रश्नं.
आम्.
आनीतानि एण्ड् वेन् आनीतः, वेन् डु यू यूस् दट् आनीतानि इस् वाट्
आनी. ओके, आनीताः, आनीतं, दोस् आर् आल् is being brought. So, like, passive voice. Passive voice. The rice is being bought, or the leaves are being bought, the money is being bought. Okay. Astu. So, we will do this second activity, just this five questions, and then we will ask any questions or kimapi kutapi. Okay, Suchana, kaha patati?
Aham pathami.
Astu, patatu Sushma bhagini.
Yasmat bhitihi bhavati tasya padasya panchami vibhaktihi bhavati. Udaharane, vyaghrat janaha bhitaha bhavanti. Abhyasa, कः कस्मात् भीतः इति अधः निर्दिष्टम् अस्ति. तदारेण वाक्यानि रचयत्. फस्ट् वन्, रावणः रामतः भीतः अस्ति.
उत्तमं. सो रावणः इस् स्केर्ड् आफ् राम. सो रावणः इस् स्केर्ड् आफ् राम. सो रावणः रामतः भीतः अस्ति. और् वट् केन् रामतः आल्सो बि?
रामात्.
रामात्, उत्तमं. रामात्. ओके, मोहन महोदय द्वितीयं करोति वा?
आम्. महाराजः शत्रुः. महाराजः शत्रुतः भीतः अस्ति. महाराजः
shatruhu ukarant shatrutah I'll go with that
okay shatrutah or shatroho
ukarant pulling
ukarant pullingam asti so shatruhu or shatroho
maharajah shatroho vitah asti
uttamam amira mohdaya
चोरः आरक्षकात् भीतः अस्ति
सम्यक् नरसिंहमहोदय
बालकः पिशाचतः भीतः अस्ति
उत्तमम् और पिशाचात्
पिशाचतः
सज्जनः दुर्जनतः भीतः अस्ति और सज्जनः दुर्जनात् भीतः अस्ति
उत्तमं सम्यक् ओके प्रश्नमस्ति वा ओके डस् एनी वन् वाण्ट् टु ट्रै मेकिङ्ग् सेण्टेन्सेस् मे बि यूसिङ्ग् भीतः और् एनी अदर् पञ्चविभक्ति सेण्टेन्सेस्
भगिनी देर् आर् मोर् आन् द नेक्स्ट् पेज्
ओ या ऐ नो We'll do that next class. It can serve as a good reminder.
Okay.
Duryodhanah Duryodhanah Bhimat Bhitah Asti
Uttamam Uttamam Amira Mohdaya, did you have a
Balakah Varshat Bhitah Asti
Balakah from what?
Varshat, rain. Rain.
ओ ओके ओके वर्षात् भीतः अस्ति ओके इतोपि एकं वन् मोर् सेण्टेन्स्
वाट् इस् थण्डर् इन् संस्कृत
ब्लाङ्किङ्ग् औट्
वर्षगर्जनः
थण्डर्
छात्रः परीक्षा भीतः
छात्रः
अध्यापकतः भीतः अस्ति
Yeah.
Not for you, for commonly.
No, you are Adhyapika. He is talking about Adhyapaka.
Not Adhyapika.
I have one bhagini. Shunakah Jalat Bhitah Asti.
Uttam. Uttam.
Or Mushikah, it's not Marjarat. No, that is Akarma. That would be Marjara.
Or Bidalaha.
Bidalaha. Bidalayaha.
Bidalaha.
Bidalaha, singular.
Bidalaha.
No, it is feminine, no?
Bidalaha.
Bidalaha is pullinga.
Bidalaha is pullinga.
Bidalaha is pullinga. So, Bidalat Bitaha Asti. Yes.
Good one.
इतोपि अस्ति वा
बालकः शुनकात् भीतः अस्ति
सम्यक् भीतः अस्ति चेत् बहूनि वाक्यानि आगच्छति आगच्छन्ति सो मेनि सेण्टेन्सेस् इन् यू सो भीतः
वी आर् आल् स्केर्ड् आफ् कोरोना
ओके ओके
जनाः कोरोना रोगात् भीतः अस्ति
सन्ति ओके
इट् इस् नाट् जस्ट् भीतः नौ रीसेण्ट्लि वन् आफ् मै फ्रेण्ड्स् द लेडीस् दे हस्बेण्ड् अण्ड् वैफ् अण्ड् त्री किड्स् दे वेण्ट् टु नेपाल् अण्ड् केम् बेक् दे गाट् कोरोना बेक् That lady is only less than 30 years old and she is admitted in hospital with pneumonia, all sorts of complications. So, Corona, previously they said only old people will get. There is no such distinction nowadays. Everyone is getting, so everyone have to be safe. Yeah.
Yes, so please stay safe.
Stay home.
Stay home. Okay. Prashna